इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। आदौ मुख्याः वार्ताः। लोकसभा निर्वाचनस्य द्वितीय चरणार्थं नैर्वाचनिक प्रचाराभियानम् अद्य सायंकाले सम्पन्नम्। आपद प्रतिरोधी संरचनायां समायोजितं षष्ठमं अन्ताराष्ट्रिय सम्मेलनं सम्बोधयता प्रधानमन्त्रिणा नरेन्द्र मोदिना निगदितं यत् समुचित भविष्याय सौम्याधारभूत संरचनाभ्यः कृतनिवेशः महत्वपूर्णं वर्तते। राष्ट्रपति पदारूढा द्रौपदी मुर्मुः जलवायु परिवर्तन सम्बद्ध समस्यानां निवारणे वन संरक्षण भूमिकाः प्रख्यापितवती। जम्मू कश्मीर क्षेत्रस्य शिक्षा निदेशालयेन अद्य जम्मू संभागस्य विद्यालयानां कृते नूतनः कालो घोषितः। अपि च आईपीएल इति इंडियन प्रीमियर लीग इत्याख्यायां क्रिकेट स्पर्धा मालिकायां दिल्ली कैपिटल्स गुजरात टाइटन्स दलयोर मध्ये द्वन्द्वं भविष्यति। अथ वार्ताः विशदीकृत्य। लोकसभा निर्वाचनस्य द्वितीय चरणार्थं नैर्वाचनिक प्रचाराभियानम् अद्य सायंकाले सम्पन्नम्। समेषां राजनीतिक दलानां शीर्ष नेतारः मतदातृन् निजपक्षे आक्रष्टुं नैरन्तर्येण जनसभासु पथप्रदर्शनेषु च संलग्नाः आसन्। द्वितीय चरणेस्मिन् अस्य मासस्य षड्विंशे दिनांके केरलस्य 20 आसनानि, कर्णाटकस्य 14 आसनानि, राजस्थानस्य 23 आसनानि, उत्तरप्रदेश महाराष्ट्रयोः 8 आसनानि, मध्यप्रदेशस्य 7 आसनानि, असमस्य 5 आसनानि, बिहारस्यापि 5 आसनानि, पश्चिमबंगालस्य 3 आसनानि, छत्तीसगढ़स्यापि 3 आसनानि, त्रिपुरा जम्मूकश्मीरयोः 1 आसनं समेत्य द्वितीय चरणेस्मिन् मतदानानि भविष्यन्ति। मणिपुरस्य बाह्य मणिपुर संसदीय क्षेत्रस्य 23 विधानसभाक्षेत्रेष्वपि तस्मिन् एव दिवसे मतदानं प्रकल्पितम् अस्ति। प्रधानमन्त्रिणा निगदितं यत् समुचित भविष्याय सौम्याधारभूत संरचनाभ्यः कृतनिवेशः महत्वपूर्णं वर्तते। एकस्मिन् श्रव्यसन्देशे श्रीमोदी आपद प्रतिरोधी संरचनायां समायोजितं षष्ठमं अन्ताराष्ट्रिय सम्मेलनं सम्बोधयन् कथितवान् यत् आपदानां मापनं मानव परिवार समुदायैः सम्बद्धम् अस्ति। असौ राष्ट्राणां मध्ये सामूहिक सौम्यावश्यकताभ्यां बलं प्रदत्तवान्। ध्येयं वर्तते यत् आपद प्रतिरोधी आधारभूत संरचनायाम् आयोजितस्य अन्ताराष्ट्रिय सम्मेलनस्य षष्ठमं संस्करणम् अद्य नवदिल्ल्यां समारब्धम्। स्वस्तनं च यावच्च प्रचलिष्यति। अद्य राष्ट्रपति पदारूढा द्रौपदी मुर्मुः जलवायु परिवर्तन सम्बद्ध समस्याः प्रकाशितवती। अपि च तत्सम्बद्धानां समस्यानां समाधानाय वन संरक्षण भूमिकाः अपि प्रख्यापितवती। अद्य देहरादून नगरे वनानुसंधान संस्थाने भारतीय वनसेवायाः परिवीक्षाधीनानां दीक्षांत समारोहं सम्बोधयन्ती राष्ट्रपतिः प्रावोचत् यत् मानवाः सायासं वनानां महत्त्वं विस्मारयन्ति। अनया सबलं प्रख्यापितं यत् मनुष्याः अस्याः पृथिव्याः अमूल्य संसाधनानां स्वामिनः नैव सन्ति, अपितु संरक्षकाः सन्ति। अत्रावसरे राष्ट्रपतिः परिवीक्षाधिकारिणः वनसंरक्षण संवर्धन पोषणानां महत्वपूर्ण कर्तव्यानि प्रति प्रोत्साहितवती। अनया विश्वासो अभिव्यक्तः यत् एते अधिकारिणः एताः वार्ताः हृदि निधाय पूर्णमनसा कार्यं समाचरिष्यन्ति। अवधेयं वर्तते यत् एतस्मिन् प्रख्याते दीक्षांत समारोहे इन्दिरागान्धी राष्ट्रिय वनाकादम्याः 99 परिवीक्षार्थिभिः समं मित्रराष्ट्रस्य भूटानस्य प्रशिक्षु अधिकारिद्वयेनापि अकादम्याः 2-वर्षीयः पाठ्यक्रमः सम्पूरितः। वर्तमानसत्रे मध्यप्रदेशाय सर्वाधिकं 15, उत्तराखण्डाय च 3 अधिकारिणः मिलिताः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज़ आन् एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। जम्मूकश्मीरक्षेत्रस्य शिक्षानिदेशालयेन अद्य जम्मूसंभागस्य विद्यालयानां कृते परिवर्तितः नूतनः कालो घोषितः। आकाशवाण्याः जम्मूक्षेत्रस्य वार्ताहरेण संसूचितं यत् परिवर्तितः नूतनः विद्यालयकालः प्रातः 8 वादनतः 2 वादनपर्यन्तं भविष्यति। अस्यादेशस्य अनुपालनं सर्वे शासकीयेतराः विद्यालयाश्च करिष्यन्तीति। भारतीय जनता पार्टीति दलस्य वरिष्ठ नेत्रा प्रधानमन्त्रिणा च नरेन्द्रमोदिना अद्य छत्तीसगढस्य सरगुजा लोकसभाक्षेत्रस्य अम्बिकापुरनगरे एकः जनसमूहः सम्बोधयन्ता उक्तां यत् कांग्रेसदलं जातिधर्मयोः आधारे आरक्षणप्रदानं करोति। श्रीमोदिना प्रोदीरितं यत् कांग्रेसदलं संविधानं परिवर्त्य अनुसूचितजाति जनजाति वञ्चितवर्गाणाम् अधिकारान् स्वीयमतदानकोशत्वेन कर्तुम् इच्छति। असौ निगदितवान् यत् आरक्षणरक्षा केवलं भाजपेति दलेन एव भवितुम् अर्हति। श्रीमोदिना अग्रे भणितं यत् ये जनाः भारतम् आत्मनिर्भरं द्रष्टुं न इच्छन्ति ते देशे विपक्षि संयुतिदलयुतं निर्बलप्रशासनम् इच्छन्ति, अपि च केन्द्रप्रशासनं भाजपेति दलम् आतंकवाद नक्सलवादौ विरुध्य कठोरतया कार्याचरणं विदधाति, तत्रैव कांग्रेसदलं हिंसासंवर्धनाय कार्यं समाचरति। राजस्थानराज्यस्य प्रशासनेन चिकित्साशिक्षाविभागे सर्वेषु चिकित्सालयेषु मानवीय अङ्गानाम् उतकानाञ्च प्रत्येकं प्रकरणे दातुः प्राप्तकर्तुश्च पूर्णतया पारदर्शिता भवेदिति मत्वा विशिष्टराष्ट्रिय अङ्गोतकप्रत्यारोपणसङ्घस्य घटनाय निर्देशः प्रदत्तः। डॉ. रश्मिगुप्ता इत्यनया दिङ्निर्देशाः प्रसारयन्त्या प्रोक्तं यत् अङ्कप्रत्यारोपणे सक्षमाः संस्थाः 24 होरासु विशिष्टपरिचायिकाङ्कं सृजन्तीति येन पारदर्शिता स्यात्। मुम्बईस्थेन राजस्वनिदेशालयेन 4 जनाः निगडिताः सन्ति। तैस्सह वैदेशिकं प्रायशः 9.5 किलोभारात्मकः स्वर्णधातुः 17 किलोभारात्मकञ्च रजतम् इति सम्प्राप्तम्। असमराज्ये द्वितीयचरणीय मतदाने 5 लोकसभासु मतदानं भविता। तदर्थं वरिष्ठाः नेतारः अद्यान्तं प्रचाररताः आसन्, यत्र 61 प्रत्याशिनः स्वभाग्यं परीक्षन्तः सन्ति। तत्रैव 77 लक्षाधिकाः जनाः एतेषां प्रत्याशिनां भाग्यं परीक्षन्ते। दलगांव इत्यत्र राज्यस्य मुख्यमन्त्रिणा हेमन्त बिस्वा शर्मा इत्यनेन नैर्वाचनिक जनसभा एका सम्बोधिता। प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय पञ्चायती राजदिवसस्य शुभाशयाः प्रदत्ताः। एकस्मिन् सामाजिक संचारतन्त्रजाले प्रसारिते सन्देशे तेनोक्तं ग्राम्यस्तरीय भारतस्य परिवर्तनाय जनजीवने च उन्नतगुणवत्ता सुनिश्चयाय निम्नस्तरेषु कार्यरताः जनाः तेन प्रशंसिताः। तेनोक्तं यत् प्रशासनं पञ्चायती राजसंस्थानां दृढीकरणे जनानां स्वप्नेभ्यः उड्डयनपक्षदानार्थञ्च कार्यं कुर्वदेव स्थास्यतीति। अमेरिकादेशीयेन सीनेटाख्येन संसदा एको विवादास्पदविधेयकः अभिस्वीकृतः, यत्र टिकटॉक इत्याख्यः अनुप्रयोगः प्रतिबन्धितो भवितुं शक्नोत्वीति। यदि विधेयकोऽयं पारितः भविष्यति चेत् चीनदेशस्य अनुप्रयोगः बाइटडान्सः इत्यस्य अधिकारक्षेत्रे स्वस्याधिकारभागस्य विक्रयणाय 9 मासानां कालः अवशिष्टः भविष्यति। इति वार्ताः।